पुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनम् कर्तुं सृष्टिमिमां स्तुतस्स विधिना व्यासेन बुद्ध्याप्तये संकष्ट्याश्च विनायकस्य च मनोः स्थानस्य तीर्थस्य वै दूर्वाणां महिमेति भक्तिचरितम् तत्पार्थिवस्यार्चनम् तेभ्यो यैर्यदभीप्सितं गणपति स्तत्तत्प्रतुष्टो ददौ ताः सर्वान् समर्थ एव कथितुं ब्रह्मा कुतो मानवः क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः सिंहाङ्कस्य विनायको दशभुजो भूत्वाथ काशीययौ हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवम् त्रेतायां शिवनन्दनो रसभुजो जातो मयूरध्वजः हत्वा तङ्कमलासुरञ्च सगणं सिन्धुं महादैत्यपम् पश्चात् सिद्धिमतीसुते कमलज तस्मै च ज्ञानन्ददौ द्वापारे तु गजाननो युगभुजो गौरीसुतसिन्दुरम् सम्मर्द्य स्वकरेण तन्निजमुखे चाखुध्वजो लिप्तवान् गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै तुष्टायाथ च धूम्रकेतुरभिधो विप्रस्स धर्मर्धिकः अश्वाङ्को द्विभुजोऽसितो गणपतिं लेच्छान्तकस्वर्णदः क्रीडाकाण्डमिदङ्गणस्य हरिणा प्रोक्तं विधात्रे पुरा